श्री गणपतीवर अभिषेक करताना अथर्व शीर्षाप्रमाणेच वेदातील गणपती सूक्त आणि ब्रह्मणस्पती सूक्तही म्हणतात. ती दोन सूक्त आता आम्ही प्रथम सादर करीत आहोत. प्रथम ऐका गणपती सूक्त.
ओम आतुनैन्द्रक्षुमन्दन् चित्रं ग्रामं संग्रभाय महती दक्षिणेन विद्महित्वा त्विकूर्मिन्तु विदेष्टन्तु विमघम् त्विमात्रममोभि नयित्वा चूरदेवानमर्त चोदिच्छन्तम् भीमन्नगां वारयन्ते एतोमिन्द्रवामेषानं वस्वस्वराजम् नराधतामर्दिषन्नः प्रस्तोषदुपवादिषद्रवच्छामगीयमानम् अभिराधचार्युवरत आनो भरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसोर्निर्भाग उपक्रमस्वाभरदृशता दृष्णो जनानाम् अदाशूष्टरस्य वेदः इन्द्रय उनुते अस्ति वाजो विप्रेभिः सनित्वः अस्माभिः सुतं सनुहि सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः वशये च मक्षूजरन्ति.